ऐ गाट् डिस्कनेक्टेड्, मम अन्तर्जालस्य समस्या अस्ति. किं प्रचलति इदानीं? हलो,
हरि ओं भगिनि.
हलो,
यु आल् गाट् डिस्कनेक्टेड् आर् वन्दे ऐ गाट्
डिस्कनेक्टेड्? नो नो, ओन्ली यु गाट् डिस्कनेक्टेड्.
ओके, कः का वदति इदानीं?
गुरुः ओर् ऐ थिङ्क्
गुरु
शर्मिला भगिनि, पितृ शब्दं वदति वा?
ऋकारान्तः पुल्लिङ्गः पितृशब्दः. पिता पितरौ पितरः, हे पितः हे पितरौ हे पितरः, पितरं पितरौ पितृन्, पित्रा पितृभ्यां पितृभिः, पित्रे पितृभ्यां पितृभ्यः, पितुः पितृभ्यां पितृभ्यः, पितुः पित्रोः पितॄणां, पितरी पित्रोः पितृषु.
विजया भगिनी, मातृशब्दं वदति वा?
ऋकारान्तस्त्री मातृ शब्द, माता मातरौ मातरः, मातरं मातरौ मातुः, मात्रा मातृभ्यां मातृभिः, मात्रे मातृभ्यां मातृभ्यः, मातुः मातृभ्यां मातृभ्यः, मातुः मात्रोः मातॄणां, मातरी मात्रोः मातृषु, हे मातः हे मातरौ हे मातरः.
भगिनी, द्वितीयाविभक्ति बहुवचनं मातृः, हौ टु प्रोनौन्स्
मातृः?
मातृः हलन्त्यदीर्घ,
हलन्त् नास्ति, दीर्घ एव मातृः.
मातृः, ओके.
माधुरिका भगिनी,
आं भगिनि,
सः शब्दं वदति वा? सर्वनाम शब्दं सः.
I don't know the answer.
You can see
it. Bakarantah pullingah tad shabdah. Saha tau te, tam tau tan, ten tabhyam,
tena
te, tena तेन ताभ्यां तैः तस्मै ताभ्यां तेभ्यः तस्मात् ताभ्यां तेभ्यः तस्य तयोः तेषां तस्मिन् तयोः तेषु
रमा भगिनी, अहं शब्दं वदति वा? रमा भगिनी,
आं भगिनि,
अहं शब्दं
अस्मत् शब्दः त्रिलिङ्गक अस्मत् त्रिलिङ्गकः
दकारान्तः त्रिलिङ्गः
दकारान्तः त्रिलिङ्गकः अस्मत् शब्दः अहम् आवां वयं माम् आवाम् अस्मान् मया आवाभ्याम् अस्माभिः मह्यम् आवाभ्याम् अस्मभ्यं मत् आवाभ्याम् अस्मत् मम आवयोः अस्माकं मयि आवयोः अस्मासु.
सो इदानीं किञ्चित् परिचयम् अभवत् इति अहं चिन्तयामि, शब्दरूपस्य परिचयं. इफ् यु डोण्ट् मेमरैस् आल् द सौण्ड् इट् इस् ओके, when somebody is telling, when you listen, you will know that the pattern, you will you can try to match the pattern for each sound, karantah, ikarantah, ikarantah, akarantah. See, you can try to match the pattern. It's okay, even if you don't memorize all shabdas, don't worry about it. First, you, I think at least one or two shabdas you all should have memorized, and we just keep on hearing so that it will just go inside. That's okay. Even if you don't read it, it's okay, don't worry. You can see and read. After some time, it will be a practice. You will understand the pattern. Sarve uktavantaha? Any copy na uktavantaha?
Aham na uktavati.
Jaya bhani, shami.
Sorry, okay.
Arashi, aha. Yushmat shabdam, adati va?
Yushmat. दकारान्त पुल्लिङ्ग युष्मत् शब्दः त्रिलिङ्गः त्रिलिङ्गः युष्मत् शब्दः त्वं युवां यूयं त्वां युवां युष्मान् त्वया युवाभ्यां युष्माभिः तुभ्यं युवाभ्यां युष्मभ्यं त्वत् युवाभ्यां युष्मत् तव युवयोः युष्माकं युष्माशं त्वयि युवयोः युष्मासु
युष्माकम् एव तव युष्माकं युवयोः
युष्माकम्
अस्माकं लैक् अस्माकं युष्माकं
धन्यवादः
त्वयि युवयोः
युष्मासु
पुस्तकं प्रति गच्छामः पठामः पेज् नम्बर् चत्वारिंशत् 40 पुटसङ्ख्या चत्वारिंशत् चतुर्थीविभक्ति अभ्यासं कृतवन्तः वा किमपि सन्देहम् अस्ति वा तत्र गच्छामः वा साक्षात् पञ्चमी प्रति
भगिनि वक्ता इत्युक्ते वक्तृशब्द वक्तृ वक्ता
वक्तृ
वक्तृशब्द पुल्लिङ्ग वक्तृपुल्लिङ्ग पुल्लिङ्ग
पञ्चमी पठामः पञ्चमी पश्यतु अहं पुनः एकवारं रिवैस् करोमि प्रथमा विभक्ति सब्जेक्ट् नामपदम् इति प्रातिपदिकम् इति अन्यनामम् अस्ति प्रातिपदिकम् In the sentence, it is called as Katru or Katta. Prathama Vibhakti, Pratipadikam, naming words. Tatra, Prathama Vibhakti Madhi, Vibhakti hi nasti. Anantaram, Sambodhanam Anantaram Pashyama. Hey, hey, iti abasati. Last Pashyama. Dvithya Vibhakti Madhi, Karma Padam. Sarvada, im iti abasati. Yeka vachane, bahu vachane, in iti abasati. Ramana, Srilingam. समानं प्रथमा द्वितीया सीताः इति आगच्छति तत् कर्मपदम् अनन्तरं तृतीया विभक्ति इन्स्ट्रुमेण्टल् इति नाम आधारसम्बन्धविभक्ति तत्र दट् इस् आल्सो काल्ड् उपपदविभक्ति वाहनेन गच्छामि इति आगच्छति समानं मित्रेण सह गच्छामि सः sartham sarkam iti we add some word so it is called upapada vibhakti it's also called upapada vibhakti instrumental case adhara vibhakti upapada vibhakti iti atra padam antaram bina saha bina sartham alam there are some words when these words come it will come in that vibhakti like that antaram chaturthi vibhakti चतुर्थी विभक्ति बेसिकली दानक्रिया नमतिक्रिया एण्ड् विश् स्वस्तिक्रिया इति यदा ददाति दास्यति यच्छति इति आगच्छति तत्र आगच्छति एकम् अनन्तरं तृतीया विभक्ति एमोशन्स् अपि सन्तोषेण पठामि आनन्देन क्रीडामि तत्र एमोशन्स् मध्ये अपि तृतीया आगच्छति चतुर्थी मध्ये अपि emotions agachati but in general मह्यं बट् इट्स् अलाङ्ग् वित् द क्रियापदं मह्यं मधुरं रोचते आर् लक्ष्मीपण्डिताय क्षम्यता लक्ष्मीपण्डिताय असूचयति इति क्रुध्यति असूचयति इति किञ्चित् एमोशन्स् नेगटिव् एमोशन्स् मध्ये अपि आगच्छति चतुर्थी परन्तु मोस्ट्लि इट् इस् नोन् अस् धानक्रिया नमतिक्रिया इति अत्र उदाहरणमपि बहून् उदाहरणं वयं दृष्टवन्तः अद्य पञ्चमी पठिष्यामः पञ्चमीविभक्ति सामान्यतया फ्रम् इति अर्थं वदति चेत् फ्रम् इति अर्थम् अनन्तरं यदा कम्पेरिसन् कुर्मः तत्रापि पञ्चमी आगच्छति साक्षात् उदाहरणं पश्यामः प्रथमम् उदाहरणम् अस्ति प्रथमम् उदाहरणमस्ति वृक्षात् पर्णं पतति इति तत्र वयं यदा वदामः रामशब्दं स्वीकुर्मः रामात् इति वदामः रामतः स्लाश् पश्यति चेत् रामात् रामतः द्वयमपि तत्र सम्यक् एव वृक्षात् पर्णं पतति अपि सम्यक् वृक्षतः पर्णं पतति अपि सम्यक् द्वयमपि सम्यक् एव जनरलि तत्र सेपरेशन् फार्म् इति पञ्चम वृक्षात् फ्रम् द ट्री पर्णं पतति इति अहं गृहात् कार्यालयं गच्छामि फ्रम् होम् ऐ गो टु स्कूल् गृहात् विद्यालयं गच्छामि गृहात् कार्यालयं गच्छामि इति कुत्र फ्रम् इति अर्थम् आगच्छति तत्र तत् पदस्य प्रयोगे पञ्चमी आगच्छति तः आत् द्वयमपि सम्यक् एव अभ्यासः अस्ति गोविन्दस्य गृहे कश्चन कार्यक्रमः आसीत् कार्यक्रमार्थं विभिन्नस्थलेभ्यः विभिन्नाः जनाः आगताः अत्र विभिन्नस्थलेभ्यः इति अस्ति खलु तत् पञ्चमी बहुवचनं अत्र एकम् अस्ति समटैम्स् वि मे नाट् बि नोयिङ्ग् वेदर् इट् इस् चतुर्थी बहुवचनम् आर् पञ्चमी बहुवचनं रामेभ्यः रामेभ्यः इति एव आगच्छति सर्वत्र वयमपि समानम् आगच्छति पञ्चमी चतुर्थी बहुवचनं सो by seeing the sentence we will understand whether it is a chaturthi or panchami that will come by practice prathama dine confusion eva bhavati abhyasena tat agachati kalakrame kaha kutaha agatavan iti adaha nirdishtam asti kutaha is a panchami prashna prashna vakya कुतः आगच्छति गृहतः आगच्छति इति प्रश्नवाक्यं कुतः इति फ्रम् वेर् इति अर्थं तदाधारेण वाक्यानि रचयत सो गोविन्दस्य गृहे कश्चन कार्यक्रमः आसीत् कार्यक्रमार्थं विभिन्नस्थलेभ्यः विभिन्नजनाः आगताः कः कुतः आगतवान् इति अधः निर्दिष्टम् अस्ति तद् आधारेण वाक्यानि रच हू हेड् कम् फ्रम् वेर् इति अत्र डीटेल्स् अस्ति तत् आधारेण वाक्यं रचयामः इति प्रथममस्ति मैसूरुतः मातुलः आगतवान् मातुलः वयं जानीमः अङ्कल् मेटन् मातुः मातुलः काशीतः अनुजः आगतवान् अत्र इतोपि एकमस्ति पञ्चमीविभक्तिमध्ये गौरी इति पदं स्वीकुर्मः चेत् अत्र गौर्याः इति आगच्छति पञ्चमी अपि षष्टि अपि समानं स्त्रीलिङ्गपदं मध्ये पञ्चमी षष्टि समानं सीतायाः सीतायाः गौर्याः गौर्याः इति आगच्छति वयम् इतोपि एकं सुलभमार्गम् अस्ति रतः एव तत्र स्त्रीलिङ्गमध्ये अपि स्थापयामः नपुंसकलिङ्गमपि तः स्त्रीलिङ्गमपि तः इति स्थापयितुं शक्नुमः शालातः शाला आकारान्तस्त्रीलिङ्गं शालातः बालाः आगच्छन्ति फ्रम् द स्कूल् चिल्ड्रनाकम् आगच्छन्ति शालातः अहं भोजनशालातः आहारं स्वीकरोमि ऐ टेक् द पार्सल् फ्रम् द होटेल् सो तत्र स्त्रीलिङ्गपदं मध्ये तः इति अपि वक्तुं शक्नुमः अथवा शालायाः बालाः आगच्छन्ति इति अपि वक्तुं शक्नुमः द्वयमपि सम्यक् एव But the only thing is, when you use for Panjami and Shashti, since Shashti is used in many places and Panjami also, so to avoid that confusion in the practical thing, you can use Taha also, that is also good. Atrabashyatu. Kashi Taha Anujaha Agatavan. Kedar, Kedara iti asti, Kedarnath. Kedar Taha Snehitaha Agatavan. Matarastaha Bhagini Agatavati. Tiruvananthapura Taha Agrajaha Agatavan. Pune Taha Bhagineyaha Agatavati. Kalakata Taha Anujaha Anuja Agatavati. Kalati Taha Guruhu Agatavan. Gramataha Pita Mahaha Agatavan. Hyderabad Taha Mata Mahi Agatavati. Iti asti. Okay. Yada generally from iti sthane agachati. Tata prathamam udaharanam. Vrikshat parnam patati, vrikshat palani patati. Samanam mama syutaha asti, bag. Syutataha, atava syutat. Syutataha, dvayam api samyek, aham syutataha eva upyogam karomi. Syutataha, vastuni svikaroni. I take out the things from my bag. Syutataha, vastuni svikaroni. Apanataha, apanataha, palani anayami. I get fruits from the store. Apanataha, palani anayami. Iti udaharanam, bina bina udaharanam. Pustakam asti. Pustaka taha chitram svikarautu. From book take draw a picture. Pustaka taha uttaram svikarautu. Take an answer from the book. Prashnam svikarautu. Iti bina bina lingam madhye taha iti padam upayoktam samekhi. Avagatamba, kimapi sandeham asti va? Ekeka vakyam prayatnam karomi asti karomi va? From where we are getting what?
Bhagini, sandeham asti. Kashyataha api samyekva bhagini.
Na, tadaiva aham uttavati. Tadra,
kashitaha.
Kashitaha iti vayam vadamaha. Tati ikaranta strilinga padam.
Strilinga
padam. So, gauryaha iti agachati kalu?
Panchami
Shashti Dvayamapi. Tatra Kashyaha iti api samyakeva. Kashyaha Anujaha Agatavan iti. Parantu vayam just simplify nimittam Kashitaha iti vadam. Tatra Trilingeshu Daha padam upayogam kartum shakyate.
Astata.
Dvayamapi samyakeva. You can use anything. ఏకైక ఉదాహరణం వక్తుం శక్యతే వా కుతః కిం ఆనయామః ఇతి అత్ర సెకండ్ టేబుల్ పశ్యతు తత్ర ఆపణః అస్తి తండూలాః సంతి విత్తకోశః ధనం విపణిః శాకః ఇతి అస్తి ఏకైకః గచ్చతు రమా భగిని ప్రారంభం కరోతు విత్తకోశః ఇతి
అం భగిని वित्तकोशात् वित्तकोशात् धनम् आनीताः
वित्तकोशात् धनम् आनीताः मद्रिका भगिनी
विपणिता शाकाः आनीता
अत्र विपणितः जस्ट् रिमूव् द विसर्गम् एण्ड् यू केन् से विपणितः
विपणितः शाकाः
आनीता हरिः शब्दं स्वीकरोति चेत् विपणिः इति अस्ति हरिः इति स्वीकरोति चेत् तत्र हरेः इति पञ्चमी षष्ठी आगच्छति तत्र विपणेः अपि सम्यक् परन्तु वयं विपणितः इति एव वेल् स्टार्टिङ्ग् इट् इस् ईज़ि दिस् इस् ईज़ि दिस् इस् द करेक्ट् मेथड् आल्सो सो we will go with taha padam. I'm just clearing because when you read the shaktam, you might get the confusion. So I'm just repeating again. लक्ष्मी भगिनी उद्यानम् आम्रपर्णानि
उद्यानतः आम्रपर्णानि आनीतः
सुजया भगिनी मित्रगृहं वस्त्रकटाः
वस्त्रकटाः मीन्स् वाट्
कटः इस् अ मैट् मैट् मैट्
मित्रगृहतः वस्त्रकटाः वस्त्रकटान् आनयामि
लैक् फ्लोर् मेट् अस्ति खलु उपविष्टुम् विजया भगिनी प्रतिवेशिगृहं
पात्राणि आनीतः
पात्राणि वस्त्रकटाः
किं
कटाः
रेण्ट् रेण्ट् पात्राणि It's you take for rent, no? All these things, chairs and all. Sharmila Bhagini. Shala.
Shala taha dirgha pithani anitaha. Or shalaya.
Shalaya. Shalaya. दीर्घपीठानि पीठं पीठः किम् उत्पीठिका किमपि टेबल् आर् बेञ्च् सम्थिङ्ग् लैक् देट् दीर्घपीठानि लाङ्ग् बेञ्च्
लाङ्ग् टेबल्
आर् लाङ्ग् टेबल् लाङ्ग् टेबल् शोभा भगिनी ग्रामः कदलीपत्राणि
ग्रामात् कदलीपत्राणि आनीत ग्रामतः कदलीपत्राणि
पद्मावती भगिनी जलागारं
जलागारं तः जलम् आनीतम्
आनीतः परन्तु यदा नपुंसकलिङ्गम् आगच्छति जलागारां पुस्तकम् इति अन्तिम इं गच्छति
जलागारात्
पर्याप्तं पर्याप्तम्
क्षीरकेन्द्रतः क्षीरम् आनीता
क्षीरं क्षीरं मिल्क् क्षीर
क्षीरकेन्द्रतः क्षीरम् आनीताः
पारल् भगिनी भवती एक उदाहरणं वृक्षः
वृक्षतः फलम् आनीतः
इदानीम् अवगतम् इति मन्ये ऐ थिङ्क् यु आल् अण्डर्स्टुड् इतोपि एकं रीत्या वन् मोर् वे आफ् टेल्लिङ्ग् पञ्चमे विभक्ति यदा भयम् आगच्छति भीतिः इति अर्थः आगच्छति देन् अफ्रैड् आफ् संथिङ्ग् इति आगच्छति तदा अपि एक पञ्चमे एव उपयोगं करोति उदाहरणार्थं चोराः आरक्षात् पिभ्यन्ते इति अस्ति पिभ्यन्ते भीतिः एव बट् इट् इस् यूस्ड् इन् अ डिफ्रेण्ट् लकारः पिबन्ति भीतिः भवन्ति इति सिम्पल् इफ् यु टेल् देट् भीतिः इति बिकास् आफ़् द पोलीस् the thieves are afraid of the police iti artha भीतिः इति एमोशन्स् मध्ये एमोशन् भीतिः इति पर्टिक्युलर् वर्ड् तत्र अपि आगच्छति पञ्चमी एव अत्र पश्यतु व्याघ्रात् वदतु
भगिनि केन् यु रिपीट् वाट् इस् द वर्ड्
चोराः आरक्षात् पिभ्यन्ते इति आगच्छति तत् अनन्तरं पश्यामः भीताः भवन्ति इति पर्याप्तम् अत्र उदाहरणं पश्यतु व्याघ्रात् जनाः भीताः भवन्ति वि विल् यूस् इट् अस् भीताः अस्ति भीतः सन्ति एकवचनं भीताः भवन्ति बहुवचनं तत् पर्याप्तम् इदानीं पिभ्यन्ते सर्वम् अन्यत् अनन्तरं पश्यामः सो अत्र क्वशन् कस्मात् इति प्रश्नः अस्ति देर् आर् टु टैप् आफ़् क्वशन्स् फर् पञ्चमी विभक्ति एकं कुतः फ्रम् वेर् इति लोकेटिव् अर्थः फ्रम् ट्री फ्रम् आपण शाप् एवम् आगच्छति फ्रम् हूम् इति अर्थे कस्मात् इति प्रश्नः आगच्छति द्विविधप्रश्नः अस्ति तत् पूर्वम् अन्यप्रश्नाः अवगतं वा वयम् एकवारम् एकसप्ताहे वयं पठितवन्तः इति अपि मन्ये कः कौ के कं कौ कान् भवति वा तत् समानं यु डोण्ट् नीड् टु मेमरैस् दट् अगेन् सः शब्दसमानम् इन्स्टेड् आफ़् सः यु हेव् टु यूस् कः सः तौ ते अस्ति खलु कः कौ के इति एकवचनं द्विवचनं बहुवचनं प्रश्नं कं कौ कान् तृतीयाविभक्ति एकवचनं द्विवचनं बहुवचनम् अनन्तरं तृतीयाविभक्ति तत्र तया इति अस्ति खलु कया इति कया काभ्यां केभ्यः कया स्त्रीलिङ्गशब्दम् अतः कया काभ्यां काभिः इति आगच्छति एवं समान सः सा शब्दसमानं कः का इति का स्त्रीलिङ्गं कः पुलिङ्गशब्दं समानम् आगच्छति तत्रैव रेफरेन्स् भवति तत्र कस्मात् पश्य दृष्टवन्तः कुतः पञ्चमी प्रश्नवाक्यम् अस्ति यदा एतत् विभक्तिमध्ये आगच्छति वयं पश्यामः गतसप्ताहे कस्मै इति दृष्टवन्तः कस्मै नमति रामाय नमति इति कस्यै नमति कस्यै स्त्रीलिङ्गपदं लक्ष्म्यै नमामि रामाय इति अस्ति तत्र मात्रं भिन्नं तत्र कस्मै इति आगच्छति अनन्तरं यदा सप्तमी पठामः तस्मिन् इति सप्तमी मध्ये आगच्छति सेवेन्त् लास्ट् वन् तत्र मात्रं वयं किञ्चित् प्रश्नवाक्यस्य परिवर्तनमस्ति कस्मिन् इति प्रश्नवाक्यम् आगच्छति कस्मिन् अनन्तरं सर्वं कस्य तयोः सर्वं समानम् आगच्छति चतुर्थी मध्ये मात्रं रामाय इति आगच्छति तत्र कस्मै इति परिवर्तनं अन्य पुल्लिङ्गशक्ति अन्यत् सर्वं समानम् फर् अदर् आल्सो इफ् यु आस् द क्वश्चन् अबौट् हौ अबौट् ईकारान्तः हरिः इति आगच्छति चेत् प्रश्नवाक्यं किम् इति चेत् तदपि समानमेव सः शब्दं विल् बि रीप्लेस्ड् अस् कः एव्रिवेर् एक्सेप्ट् द चतुर्थी वदतु हलो अस्तु अत्र पञ्चमी मध्ये टु क्वश्चन् कस्मात् इति एकं कुतः इति एकं फस्ट् वि आर् सीन् कुतः इति आगच्छति चेत् सम् लोकेशन् फ्रम् हियर् इति फ्रम् हूम् इति अर्थं कस्मात् सो अत्र पश्यामः चेत् रावणः रामतः भीतः अस्ति तदपि सम्यक् रावणः रामात् भीतः अस्ति अपि सम्यक् उपरि पश्यतु एकम् उदाहरणम् अस्ति एक्साम्पल् व्याघ्रात् जनाः भीताः भवन्ति अति अपि सम्यक् व्याघ्रतः जनाः भीताः भवन्ति अपि सम्यक् अत्र भिन्नभिन्न उदाहरणानि सन्ति रावणः रामात् अहम् एवमेव पठामि किम् अस्ति तदेव पठामि रावणः रामतः भीतः अस्ति महाराजः शत्रुतः भीतः अस्ति चोरः आरक्षतः भीतः अस्ति बालकः पिशाचतः भीतः अस्ति गोस्ट् इति सज्जनः दुर्जनतः भीतः अस्ति इति अस्ति. अनन्तरं देवाः राक्षसाः इति अस्ति. कोऽपि वदति वा कथमागच्छति अत्र इति?
राक्षसेभ्यः अहं राक्षसेभ्यः.
सम्यक्. अत्र यु नीड् टु सी पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति परिवर्तनं कथम् इति तदा मन्यते. देवाः राक्षसेभ्यः इति आगच्छति. अनन्तरं जनाः चोराः इति अस्ति. कोऽपि वदति वा वाक्यं पूरयति वा?
जनाः चोरेभ्यः भीताः सन्ति.
सर्वे कष्टानि, तदपि बहुवचनं. कष्टानि इति अस्ति. कष्टानि किं पदं, किं लिङ्गम् इति द्रष्टुं शक्यते वा? कष्टानि इति पश्यति चेत् किं, वाट् डिड् यू
अण्डर्स्टाण्ड्?
नपुंसकलिङ्ग बहुवचनं, पुल्लिङ्ग बहुवचनं सेम्. सो कष्टेभ्यः इति आगच्छति. सम्यक्. अजाः व्याघ्राः. अजाः जानाति खलु गोट्,
पुल्लिङ्ग.
अजाः किमपि लिङ्गं भवतु, व्याघ्राः एव अत्र द्रष्टव्यं खलु.
व्याघ्रेभ्यः
व्याघ्रेभ्यः भीताः सन्ति.
वयं दुष्टाः. वयं दुष्टाभ्यः भीतः स्मः. किमर्थं स्मः इति अस्ति? इफ् यु सी द अबौ, अस्ति अस्ति, सन्ति अस्ति, अत्र किमर्थं स्मः इति अस्ति?
उत्तमपुरुषकारणेन
वयं. अस्ति इति पदम् अस्ति, सः सन्ति,
अस्ति अस्ति, स्यात् स्यः अस्ति स्यात्.
अहं वदामि एकनिमिषम्. तत्र अस्मि, स्वः, स्मः इति आगच्छति. अस्ति इति पदस्य पुनः वयं यदा गीतासोपानं पठामः, वि विल् रीड् आल् लकार प्रापर्लि, वि विल् डू द लकार. इदानीम् अहम् एवं वदामि, वयम् इति पदमस्ति बहुवचनं, उत्तमपुरुषः, अतः स्मः इति आगच्छति. सो सो द्वितीय उदाहरणं भीतिः इति स्थाने अपि पञ्चमे भवति. अनन्तरं थर्ड् सिचुवेशन्, यदा रक्षणं भवति तदा यस्मात् रक्षणं प्राप्यते इति. फ्रम् हूम्? फ्रम् वेर्? रक्षणम् इत्युक्ते प्रोटेक्टेड् इति अर्थः अपि पञ्चमविभक्ति भवति. देवः अपायात् मां रक्षितवान्. सो भीतिः स्थाने अपि आगच्छति. From where I got protected, तत्र अपि आगच्छति. देवः अपायात् मां रक्षितवान् इति अस्ति. अनन्तरं तत्र स्टेबल् अस्ति. पार्व भगिनी प्रथम उदाहरणं पठतु. राजा,
राजा शत्रुतः जनाः, जनाः सेम् मीन्स्
किम् आगच्छति उपरि? उदाहरणं पश्यतु. विष्णु मकरतः, पश्यतु सर्वत्र डीफाल्ट् द्वितीया विभक्ति, तत्र वक्तुम् आवश्यकता एव नास्ति, सर्वदा द्वितीया विभक्ति एव. इफ् यु हेव् अ डिफ्रेण्ट् क्रियापदं देन् अस्ति भवति, देन् इट् विल् बि द्वितीया सर्वदा. अत्र जनाः बहुवचनं.
राजा, राजा शत्रुतः जनाः रक्षितवान्.
सम्यक्. राजा शत्रुतः जनान् रक्षितवान्. अनु भगिनि. रामः
रावणतः सीतां रक्षितवान्.
सम्यक्. सीताम् अत्र. पद्मावती भगिनि. बालकः
अपायतः भगिनी रक्षितवान्.
भगिनीं रक्षितवान्.
भगिनीं रक्षितवान्.
शोभा भगिनी. आरक्षाः चोराः जनाः सर्वं बहुवचनम्.
आरक्षाः चोरेभ्य
सम्यक् उत्तमम्. आरक्षकाः चोरेभ्यः जनान् रक्षितवान्.
रक्षितवन्तः
क्षम्यतां बहु
रक्षितवन्तः. रक्षन्ति भी ओके न. रक्षन्ति सम्यक्.
हा रक्षन्ति तथा अनन्तरं पश्यामः. अत्र रक्षितवान् एव स्वीकुर्मः. भूतकाले एव रक्षितवन्तः एव स्वीकुर्मः. वान् वन्तः बहुवचनं. शर्मिला भगिनि. देवः कष्टानि भक्ताः.
देवः कष्टेभ्यः भक्तं रक्षितवान्.
विजया भगिनि. इन्द्रः दानवाः देवाः.
इन्द्रः दानवतः देवाः.
दानवाः बहुवचनं.
दानवेभ्यः देवान्
रक्षितवान्.
भगिनी कष्टानि इस् लैक् हरि और् कष्टानि इस् लैक् हरि
कष्टम् इति.
अच्छा कष्टं
कष्टं नपुंसकलिङ्गम् एकवचनं. कष्टं बहुवचनं. कष्टानि फलानि.
ओके धन्यवादः.
सुजया भगिनी. कृष्णः.
कृष्णः कौरवेभ्यः पाण्डवान् रक्षितवान्.
अग्रे गच्छामः. बहिः आरभ्यः ऋते पूर्वं परः इति अस्ति. अत्र किम् इत्युक्ते बहिः वयं जानीमः औट्सैड् इति. तत्र पुनः यदा षष्ठी पठामः तदापि सम्यक् एव भवति. दट्स् वाट् वि डिड् इन् अभ्यासपुस्तकं. गृहस्य बहिः इति पठितवन्तः. गृहात् बहिः एव सम्यक् सर्वदा पञ्चमी मध्ये. औट्सैड् द हौस् इति अर्थं बहिः किमपि कुत्रापि. अनन्तरम् आरभ्य अत्र आरभ्य इत्युक्ते अद्य आरभ्य फ्रम् टुडे. तदपि वयम् अभ्यासपुस्तके पठितवन्तः. अद्य आरभ्य अहं प्रतिदिनं विभक्तिवल्लरी पुस्तकं पठामि. फ्रम् टुडे ऐ विल् एव्रि डे प्राक्टीस् विभक्तिवल्लरी. प्रतिदिनम् अहं शब्दरूपान् पठिष्यामि. अद्य आरभ्य श्वः आरभ्य फ्रम् टुमारो अथवा अहं परश्वः आरभ्य अथवा अहं पूर्णिमा आरभ्य फ्रम् फुल् मून् डे. अहं प्रतिदिनं किमपि आरभ्य इति तत्रापि आगच्छति. प्रतिदिनं पठामि. अनन्तरं ऋते इति एकमस्ति. ऋते अहं वदामि. अनन्तरं पूर्वं परम् इति अस्ति. पूर्वं बिफोर् इति अर्थः. लक्ष्मणात् पूर्वं रामः इति अर्थः बिफोर् इति. अथवा से एकादशी पूर्वं दशमी तिथिः आगच्छति. बिफोर् एकादशी तव वैकासात् पूर्वं चैत्रमासम् आगच्छति इति. परः अनन्तरं समानं रामात् परः लक्ष्मणः इति अर्थः तत्रापि आगच्छति. सो वेन् दीस् पर्टिक्युलर् वर्ड्स् आर् कमिङ्ग् तत्रापि पञ्चमी आगच्छति इति अर्थः, पूर्वः परः इति. पुनः षष्ठी मध्ये अपि केचन वाक्यानि रिपिटेशन् भवति, चिन्ता मास्तु. इदानीं सः गृहतः बहिः गतवान्. गुरुवासरः इति अस्ति, गुरुवासरतः, गुरुवासरतः आरभ्य मम ज्वरः. इट् हेस् स्टार्टेड् आन् थर्स्डे इति अर्थः. गुरुवासरतः आरभ्य इति पदं यदा आगच्छति तत्र पञ्चमी भवति. अनन्तरं देवाकृते कः भक्तं रक्षेत् विथौट् एक्सेप्ट् हिम् इति अर्थः भवति. एक्सेप्ट् गाड् हू केन् प्रोटेक्ट् मी, हू केन् प्रोटेक्ट् द डिवोटीस्. सायङ्कालात् पूर्वं भवता आगतव्यं. तत् पुनः आगतव्यम् इति पदमस्ति, आगन्तव्यम् इति, तत् किम् इति अनन्तरं पश्यामः. इदानीम् अहं न वदामि. तव्यतनीयरः इति भिन्नप्रत्ययः अस्ति. इदानीम् आगच्छामि, आगच्छतु इति एव स्वीकुर्मः. समानम् आगच्छतु एव, बट् लिटिल् मोर् कण्डिशन्, यु शुड् कम् इति अर्थम् अस्ति. अनन्तरं वैशाखचैत्रात् परः इति आगच्छति. पुनः अभ्यासं कुर्मः, तदा अवगच्छन्ति. लक्ष्मीभगिनी प्रथमं, देवालयः बहिः भक्ताः सन्ति इति प्रथम उदाहरणमस्ति. देवालयतः बहिः भक्ताः सन्ति. लक्ष्मीभगिनी द्वितीय उदाहरणं वदतु, किमर्थं जनाः डेश्,
किमर्थं जनाः कार्यालयतः स्थिता दृश्यन्ते,
स्थिताः दृश्यन्ते. वै अर्थं वदति वा? डिड् यु अण्डर्स्टाण्ड् द मीनिङ्ग्?
वै आर् पीपल् स्टाण्डिङ्ग् औट्सैड् द कार्यालय,
औट्सैड् द आफीस् एण्ड् सीयिङ्ग् समथिङ्ग्, दृश्यन्ते. मधुरिका भगिनी, सप्ताह आरभ्य,
सप्ताहतः आरभ्य छात्रसङ्ख्या न्यूना अस्ति.
संख्या स्त्रीलिङ्गं,
संख्या. सो इस् इट् एट् द बिगिनिङ्ग् आफ् द वीक् द नम्बर् आफ् स्टूडेण्ट्स् आर् वाट् इस् न्यून, स्माल्,
न्यूनम् इस् लेस्. सप्ताहतः आरभ्य, फ्रम् बिगिनिङ्ग् आफ् द वीक्. अनन्तरं रमा भगिनी पठनं पूर्वम्.
आं भगिनि, पठनतः पूर्वं भवान् उपाहारं स्वीकरोतु.
अत्र सामान्यतया यदा वयं वदामः पठनात् पूर्वं सम्यक् भवति, पठनतः अपि सम्यक्, बट् इन् जनरल् वेन् वि द्वयमपि सम्यक् वदामि.
पठनात् पूर्वं भवान् उपाहारं स्वीकरोतु.
हा पार्वल् भगिनि, उत्थानम्,
उत्थानात् पूर्व, उत्थानात् परं भवती देवं नमस्करोतु.
एतत् भवन्तः एव अभ्यासं कुर्वन्तु, बहु सुलभमेव. परं पूर्वं सुलभम् एव भवति. अनन्तरम् अनुभगिनी, एतत् पञ्चमीविभक्तिरूपाणि प्रथमं पठतु, अकारान्तः शब्दं. टेबल् अस्ति खलु, पठतु.
देवाः,
अत्र नेक्स्ट् पेज् चतुश्चत्वारिंशत्, चतुश्चत्वारिंशत् टेबल् अस्ति खलु, अकारान्तः प्रथम फस्ट् लैन् पठतु.
एकनिमिषं भगिनि, पञ्चमी विभक्त्यानि तानि रूपाणि विभक्त्यन्तानि रूपाणि अकारान्तः बालात् बालेभ्यः नपुंसकलिङ्गं पुस्तकात् पुस्तकेभ्यः
पद्मावती भगिनि द्वितीयं सेकेण्ड् लैन्
अकारान्तः बालायाः बालाभ्यः
परे शोभा भगिनी इकारान्तः
इकारान्त हरेः हरिभ्यः मतेः मतिभ्यः मतिभ्यः दद्नः दधिभ्यः
तत् दधि शब्दम् इति नपुंसकलिङ्ग इकारान्तशब्दः दधिः इति दग्नः शर्मिला भगिनी इकारान्त
ईकारान्तः गौर्याः गौरीभ्यः
विजया भगिनी उकारान्तः
उकारान्तः पुल्लिङ्ग गुरोः गुरुभ्यः स्त्रीलिङ्ग धेनो धेनोः धेनोभ्यः नपुसकलिङ्ग मधुनः मधुभ्यः
सुजया भगिनी ऋकारान्तः
ऋकारान्तः पुल्लिङ्ग पितुः पितृभ्यः स्त्रीलिङ्ग मातुः मातृभ्यः
लक्ष्मी भगिनी लास्ट् ऋकारान्तः
ऋकारान्तः पुल्लिङ्ग कर्तुः कर्तृभ्यः
मधुरिका भगिनी अधः अस्ति खलु गृहम् इति एकवचनं बहुवचनं
गृहम् एकवचन गृहात्
गृहात्
गृहात् इट्स् नाट् विसर्ग आफ्टर् तः
गृहतः एदर् गृहतः आर् गृहात् नौ यूस् द अबौ एक्साम्पल् गृहात्
ओके
एदर् यु हेव् टु से गृहतः आर् गृहात्
गोट् इट् बहुवचन गृहेभ्यः
रमा भगिनी द्वितीयम्
आं भगिनि जलपातः जलपातात् जलपातेभ्यः
पारं भगिनि नेक्स्ट् ईकार
ईकारान्त अङ्कनी शब्दः अङ्कनी अङ्कनीतः अङ्कनीभ्यः
तत्र तः एव सम्यक् ईकारान्तः अस्ति अतः पुनः आत् इति वदति चेत् इतोपि दीर्घा भवति अतः अङ्कनी अङ्कनीतः एव सम्यक् तिथिः अनुभगिनि
तिथितः तिथिभ्यः और् तिथियाः भगिनि
तिथ्याः
तिथ्याः
पद्मावती भगिनि भूमिः
भूमितः भूमिभ्यः
शोभा भगिनि दुहिता दुहिता आकारः दुहितात् सम्यक् अथवा
ओके ओ ऐ थाट् इट् वास् एन् आकारान्त स्त्रीलिङ्ग
आम् आम् आकारान्त स्त्रीलिङ्ग सो दुहितायाः अपि सम्यक् बट् नौ वि आर् सीङ्ग् दिस् आत् नो सः आत्
ओके दुहितात् दुहितात् दुहितेभ्यः
आम्
भगिनी
दुहिताभ्यः सीताभ्यः पुल्लिङ्गशब्दे एभ्यः स्त्रीलिङ्गशब्दे आभ्यः
दुहिता स्त्रीलिङ्गशब्दः वा भगिनी
दुहिता
दुहितात् सम्यक् वा दुहितया नास्ति वा
किमर्थं दुहितया तृतीया खलु दुहितया
दुहित्याः
दुहितायाः सीतायाः
बालिका इति दुहितायाः वा
आक्चुलि बालायाः इति अस्ति बाला इति शब्दमस्ति बाला बालिका द्वयमपि समानम् अकारान्तशब्दः बालायाः सीतायाः समानं दुहितायाः तदपि समये दुहितातः इति इदानीं वयम् आत् तः एव पश्यामः तत् दुहितातः
दुहितातः
शालातः
अस्तु अस्तु धन्यवादः भगिनि
तनुः अर्थं न जानामि पश्यामि तनुः कोऽपि जानाति वा तनुः अर्थम् शब्दं वदतु अहम् अर्थं पश्यामि
तनु नपुंसकलिङ्गं वा
तनु
तनुनः तनुभ्यः
तनु इत्युक्ते पर्सन् इति अर्थम् अस्ति
तनवे
तनु एकं तु बाडि सेल् इति अपि अर्थः भवति परन्तु तनुः इति न प्राप्तं पश्यामि पुनः तनु इति अस्ति अस्तु अग्रे गच्छामः श्रोता विजया भगिनी
श्रोता श्रोतृ अस्ति वा श्रोतुः श्रोतृभ्यः
नटी सुजया भगिनी
नट्याः नटीभ्यः
नट्याः नटीभ्यः नटी जानाति खलु आक्टर् इति
आक्टर्
नटः पुल्लिङ्गशब्दः नटी स्त्रीलिङ्गम् आक्टर् आक्ट्रेस् सम्पतिः वेल्त् सम्पतिः सम्पत् शब्दः सम्पतिः इति आगच्छति माधुरिका भगिनी हरे हरे शब्दम् इकारान्तः
मत्ते सम्पतेः
सम्पतेः
सम्पतेः सम्पतिभ्यः
पञ्चमी अभवत् डन् इदानीम् अभ्यासं कुर्मः पञ्चमी अभ्यासम् एव भवतः गृहे वा पुत्रः पुत्री वा भवन्तः भवत्याः अनुजाः अग्रजाः वा युवर् रिलेशन्शिप् पूर्वं परम् उपयोगं कृत्वा वाक्यम् अत्र अधिकं नास्ति पूर्वपरम् अतः वयमेव कुर्मः अहं वदामि मम अहम् इति मम शब्दम् इति अहं मम इति स्वीकरोमि परन्तु मम कठिनं चेत् इदानीं पुनः वयं पञ्चमे न जानीमः मम शब्दं मध्ये अहं शब्दं मध्ये मत् इति पञ्चमी अस्ति तत् कठिनं चेत् न अभ्यासं कृतवन्तः इति कारणात् सङ्गीता इति एव अहं स्वीकरोमि भवन्तः इच्छति चेत् मत् इति अपि वक्तुं शक्यते सङ्गीतातः परः अनुजः मम अनुजः इति स्थाने अहं पञ्चमी उपयोगं करोमि. षष्ठी मध्ये अपि तत् समयं सम्यक् भवति. मम अनुजः इति स्ट्रैट् फार्वर्ड् अहं वक्तुं शक्नोमि. अथवा अहं पूर्वः परः पूर्व इति यदा अहं वरा वदामि तत्र किमपि अहं नाम उपयोगं कर्तुं शक्नोमि. अथवा अन्य उदाहरणम् अहं वदामि मम इति किञ्चित् कठिनं भवेत् चेत् अर्जुनात् पूर्वः भीमः, अर्जुनात् परः नकुलः एवम् अपि वक्तुं शक्नुमः. किमपि उदाहरणं स्वीकरोतु, वदतु वाक्यानि. तनु इति शब्दं शर्मिला भगिनी उक्तवती, सेल्फ् इति अर्थः अस्ति, बाडि इति अर्थः अस्ति, द्वयमपि अस्ति. परन्तु तनुः इति अहं न प्राप्तवती, तनु एव अस्ति. अस्तु अग्रे कोऽपि उदाहरणं वदतु. यु केन् टेक् एनी पापुलर् एक्साम्पल् आर्
भगिनी
प्रथमं पुल्लिङ्गशब्दमेव वदतु, अनन्तरं स्त्रीलिङ्गं गच्छतु.
भगिनी यदा मत् शब्दः स्वीकरोमि तर्हि कथं भवति, कथं भवति, मततः वा मतात् वा?
न, तत् मत् एव शब्दः एव मत् खलु, अन्यत् किमपि न आगच्छति.
तत् एव पर्याप्तं
वा? तत् पर्याप्तं खलु.
अहम् एकं वाक्यं वदामि. मत् पूर्वं द्वौ अग्रजः द्वौ अग्रजाः सन्ति, सम्यक् वा?
सम्यक् सन्ति, इदानीं सन्ति इति स्वीकरोतु, परन्तु स्तः इति अर्थः भवति द्विवचनं. परं न
चिन्ता, अहं विस्मृतवती भगिनि.
चिन्ता मास्तु. अनन्तरं शर्मिला भगिनी.
मतपूर्वम् अग्रज परः अनुजा च स्तः. अद्य मम अग्रजायाः जन्मदिवसम् अस्ति.
ओहो, अस्माकं शुभाशयाः वदन्ति.
धन्यवादः.
अनन्तरम् अन्ये कोऽपि किमपि उदाहरणं स्वीकरोतु.
भगिनि, मत्परः अनुजः अस्ति, मत्पूर्वं कोऽपि नास्ति.